अस्तु शैलजा भगिनी, अहम् इदानीमपि न श्रूयते, कृपया रिबूट् करोतु। महेश कश्यप महोदया, कृपया मङ्गलाचरणं पठति वा?
मङ्गलाचरणं, वन् सेकेण्ड् मेडम्, ऐ एम् वेरि पुवर् इन् दट् मङ्गलाचरणं, बट् एनिवे
यू केन् ऐ विल् से अण्ड् यू कापि मी
बेटर्. हा, दट्स् बेटर्.
यू हेव् इट् इन् फ्रण्ट् आफ् यू महोदय?
Yeah, I am opening that madam. I have it in the email.
Kripaya puratah sthapayatu.
Ha, one second, just one 30 seconds.
Mahodaya,
yes madam,
samskrutayam sanskrita bhashayam eka nimisha.
Ha,
एकनिमिष, वन् मिनिट् एकनिमिष, कृपया एकनिमिष, एकनिमिष.
ऐ एम् रेडि मेडम्.
अस्तु. ॐ गणेशाय नमः. वदतु महोदय.
ॐ गणेशाय नमः.
ॐ वागर्थाविव संप्रक्तौ. वदतु महोदय.
ॐ वागर्थाविव संप्रक्तौ.
वागर्थाविव संप्रक्तौ.
वागर्थाविव संप्रक्तौ.
वागर्थ प्रतिपत्तये.
वागर्थ प्रतिपत्तये.
जगतः पितरौ वन्दे.
जगतः पितरौ वन्दे.
पार्वती परमेश्वरौ.
पार्वती परमेश्वरौ. ॐ
येनाक्षरसमाम्नायम्.
येनाक्षरसमाम्यानं
समाम्नायम्
समाम्नायम्
अधिगम्य महेश्वरात्.
अधिगम्य महेश्वरात्.
कृत्स्नं व्याकरणं प्रोक्तम्.
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 कृत्स्रं व्याकरणं.
कृत्स्नं
कृत्स्नं कृत्स्नं व्याकरणं प्रोक्तम्.
तस्मै पाणिनये नमः.
तस्मै पाणिनये नमः.
ॐ
ॐ
सहनाभवतु.
सहनाववतु.
सहनौ भुनक्तु.
सहनौ भुनक्तु.
सह वीर्यं करवावहै.
सह वीर्यं करवावहै.
तेजस्विनावधीतमस्तु.
तेजस्विनावधीतमस्तु.
मा विद्विषावहै ॐ शान्ति शान्ति शान्ति
ॐ शान्ति शान्ति शान्तिः
धन्यवादः अस्तु
I think now Shailaja Bhagini is also online, but she is muted.
I'm here. Namaste.
Swagatam Bhagini. Namaskaraha.
I got a sore throat. Please mind my voice.
Chinta Masu Bhagini. Chinta Masu. I hope you get better.
Thank you.
Astu. पुटसङ्ख्या अभ्यासपुस्तके कृपया पुटसङ्ख्या त्रीणि अपि च द्वे उद्घाटयन्तु
द्वे
हा द्वे प्रथमचित्रं पश्यतु प्रथमचित्रं 1.2 प्रथमचित्रं पश्यतु अपि च एषः कः महेश महोदय
एषः बालकः
उत्तमं शैलजा भगिनी सः कः शैलजा भगिनी श्रूयते वा
हलो
सः कः
सः बालिकाः
चिन्तयतु भगिनी बालिका इति लिङ्गः कः भगिनी
सः बालिका
लिङ्गः कः भगिनी बालिका
स्त्रीलिङ्ग
किन्तु मम प्रश्न एषः कः
सः गणेशः सोरि
उत्तमं भगिनि उत्तमं सुन्दरं सः गणेशः
ऐ कन्फ्यूस् वित् सः एण्ड् सा एक्चुलि
तदेव अभ्यासं कुर्मः भगिनि तदेव देट् इस् वै वी आर् डूङ्ग् दिस् उत्तमम् महोदय द्वे पुटे अन्तिमचित्रं पश्यतु सा का
सा सावित्री
उत्तमम् उत्तमम् उत्तमं सा सावित्री शैलजा भगिनी 1.2 आ इति भागे प्रथमं चित्रं पश्यतु एषा का
एषा सीता
उत्तमम् उत्तमम् इदानीं महेश महोदय त्रीणि पुटे प्रथमचित्रं पश्यतु अपि च भगिनीं पृच्छतु किमपि प्रश्नः भगिनीं पृच्छतु शैलजा भगिनीं पृच्छतु
एतत् किम्
एतत् पुस्तकं
भगिनी उत्तमं सुन्दरं महोदय अपि च सुधा भगिनी नमस्कारः स्वागतं
नमस्कारः स्वागतम्
वयं अभ्यासपुस्तके पुटसङ्ख्या द्वे अपि च त्रीणि स्थापयित्वा किञ्चित् अभ्यासं कुर्मः शैलजा भगिनी कृपया किमपि प्रश्न महोदयं गच्छतु. सुधा भगिनी कृपया हेड्सेट् मध्ये आगच्छति वा, हेड्सेट् मध्ये आगच्छति वा? आर् यु यूसिङ्ग् अ हेड्सेट् भगिनि? सुधा भगिनी
Yes, Bhagini, I'm using the headset.
And it has a mic in it? I'm hearing echo, Bhagini. Prati dhvani agachati, tadapi aham prachami.
Oh, okay.
Kinchit prati dhvani agachati, Bhagini.
It doesn't have a mic.
अधुना न सम्यक् नास्ति. प्रतिध्वनि किम् किमर्थम् आगच्छति? ऐ थिङ्क् हेड्सेट् मीन्स् कनेक्टेड् बै अ कार्ड्.
या ऐ एम् यूसिङ्ग् एन् ऐपाड्.
अस्तु अस्तु. यदा सुधा भगिनी भवती वदत् यदा यदा भवती वक्तुम् इच्छति तदानीमेव कृपया अन्म्यूट् करोतु भगिनी. ओन्ली वेन् यु स्पीक् यु अन्म्यूट्, अदर्वैस् यु म्यूट् भगिनी. धन्यवादः भगिनी. शैलजा भगिनी किमपि प्रश्न महेश महोदयं पृच्छतु.
ओके, तत् किं फलम्?
उत्तमं. महेश महोदय उत्तरं ददातु.
तत् सेवाफलं सेवाफलम् अस्ति.
सेवाफलम् अस्ति, सुन्दरं महोदय. तत् सेवफलम् अस्ति. महेश महोदय किमपि प्रश्न सुधा भगिनीं पृच्छतु.
तत् कृष्णफलकं वा?
तत् कृष्णफलकम् अस्ति.
उत्तमं सुधा भगिनी, उत्तमं, सुन्दरं. किं सुधा भगिनीं किमपि प्रश्न शैलजा भगिनीं पृच्छतु.
शैलजा भगिनी एतत् किं पुस्तकम्?
एतत् भगवद्गीता पुस्तकं वा?
उत्तमं, सुन्दरं सुन्दरं सुन्दरं. अग्रे अग्रे सरामः. पुटसङ्ख्या चत्वारि. अधुना शैलजा भगिनी 1.2E इति भागं पठतु भगिनि.
E, madam?
1.2 E.
Okay. You want me to...
Pathatu, Bhagini. Pathatu.
Sa balika va...
Bhagini. Tasya upari... Eka vakyam datta.
Udaharanam. Udaharanam has... It is not clear that... Drishya...
दृष्ट्वा
वाक्यानि लिखतु.
इत्युक्ते
उदाहरणं दृष्ट्वा वाक्यानि लिखतु.
इत्युक्ते भगिनि वाट् डस् इट् मीन्?
देयर् इस् एन् एक्साम्पल् बिलो. इस् इट् राइट् मैन्?
लिखतु इत्युक्ते लिखतु
रिटन् सारी या
लिखतु Mahesh Kashyap.
Write.
Please write.
Right. Oh,
please write. May it be that you write. Actually, Lot Lakar is a beautiful Agya Vachaka. Apicha Prarthana Vachaka.
So that is a questioning one word.
Not questioning, Bhagini. Not questioning. It's like a Prarthana. May it be that
pleasing word. Okay.
Pleasing no agya, like prarthana bhagini. Yada aham iti vadami vadatu bhagini, vadatu bhagini. Ichukte aham prarthana karomi bhavati kripaya.
Okay.
Yadi vaktu michchati tadani meva vadatu. Vadatu pra, it's like a prarthana jaise bhagini.
Okay.
Likhatu ichukte kripaya mama prarthana iti bhavati likhatu.
Okay.
Vakyani likhatu ichukte bhagini.
Sentence.
Kintu vakyani. Vakyam iti sentence asti na?
Vakyani.
Vakyani iti?
Vakyani.
Sorry,
I don't know.
Na chinta mastu bhagini, chinta mastu. We have not done, it's okay. So.
Excuse me, madam. Sorry, I was away for a few minutes because my father is not well. He's had a paralysis. So I just need to go and attend to him sometimes in between.
Astu chinta mastu, chinta mastu mahodaya.
So I had written a message.
Astu sundaram karyam. Sailaja bhagini kripya mute karotu bhagini. Kshamyatam. Apicha keke santi nama uchyatam. Vilambena ke agachanti nama
uchyatam.
Aparna bhagini. Swagatam bhagini.
Thank you. Dhanyavadaha.
Apicha Suresh asti va mahodaya.
Namaskaram.
Namaste mahodaya, swagatam.
Namaskaram.
Puta sankhya trini apicha chatvari abhyasa pustake mahodaya bhagini. Astu. Idanim vayam vachana abhyasa kurmaha. Vachana ichukte saha yadi eka purushaha asti che tadanantaram vayam katham vadamaha saha eshaha khalo yadi yadi dve asti dvau asti katham vadamaha saha tau balakau tau vriddhau.
Take a best from Sanskrit 13.
Take a best. Namaskaram mahodaya.
Namaskaram. Namaskaram. Thank you. Dhanyavada. Sanskrit 13 from Jagannath Mahodaya.
Astu. Swagatam Mahodaya. Swagatam. So, Saha, Mahodaya, Vayam Putasankhya Dve, Abhyasa, Dvau, Dve, Iti Abhyasa Meva Karo, Kurmaha. Ekam dve putasankhya dve abhyasa pustake. Saha एकवचन द्विवचन द्विवचनरूपं तौ बहुवचनरूपं ते सह बालकः तौ बालकौ ते बालकाः अग्रे महेश महोदय वदतु वृद्धः उत्तमम् अग्रे तौ
वृद्धौ
उत्तमम्
ते वृद्धे
वृद्धाः
सारि ते वृद्धाः
उत्तमम् शैलजा भगिनी कृपया अग्रिमं करोतु गणेशः
विच् वन् मेन्
गणेशः
सः गणेशः तौ गणेशौ ते गणेशाः
उत्तमम् सुधा भगिनी एषः गोविन्दः करोतु भगिनि
एषः गोविन्दः तौ गोविन्दौ एतौ गोविन्दौ
उत्तमम्
एकः
एते
गोविन्दाः
उत्तमं भगिनि सुन्दरम् उत्तमम् सुरेश महोदय अग्रिमं करोतु कृपया आरक्षकः
एषः आरक्षकः एतौ आरक्षकौ एते आरक्षकाः
उत्तमं सुन्दरम् अपि च अपर्णा भगिनी सुधा भगिनी कृपया म्यूट् करोतु अपर्णा भगिनी कृपया अग्रिमं वदतु
विच् वर्ड्
सैनिकः
सः सैनिकः तौ सैनिकौ ते सैनिकाः
उत्तमं सुन्दरम् अपि च भीष्ट महोदय स्त्रीलिङ्ग वक्तुम् इच्छति वा स्त्रीलिङ्गरूपं सीता ज्ञातं वा महोदय अहमेकं वदामि सा सीता ते सीते ताः सीताः अग्रिमं करोतु महोदय सन्ध्या भीष्ट महोदय करोतु
एक्स्क्यूस् मी मेडम् here for bahuvachanam for striling and pullingam it comes the last word comes with taha
samaneva uttamam bhagini uttamam samaneva kintu katham janimaha vayam katham janimaha yadi pulling asti chet te balakaha किन्तु स्त्रीलिङ्ग् अस्ति चेत्
ताः बट् इवन् फार् पुल्लिङ्ग् आल्सो वि से ताः
किन्तु स्त्रीलिङ्ग् अस्ति चेत् भगिनि सा ते ताः ताः सीताः ताः सीताः
But for pullinga also we say taha, isn't it ganeshaah, not ganeshe?
Astu astu bhagini, kintu atra sarvanama rupam. Sarvanama ichukte
many name. Many form. Plural.
Sarvanama ichukte kimapi janasi va?
Many name.
Pronoun.
Oh, pronoun. Okay.
Ah.
Okay.
Pronoun rupam kimapi bheda asti. Kinchit bheda asti bhagini. Pronoun.
Okay.
Ah. Saha tau te iti iti lingaka.
Pulingam.
Pumlinga. Api cha striling rupam?
Sa te taha.
Taha sitaha. Api cha pumling asti chet? Te vriddhaha. Kinchit bheda asti. Satyam bhagat. Satyam bhaginin satyam vadatu kintu vadati kintu kintu kinchit bheda asti sarvanam rupa.
Thank you.
Agrimam Abhisht Mahodaya Sandhya iti
Sandhya. Te Sandhyo?
Te Sandhye.
Te Sandhye? Ta Sandhyaha.
Uttamam. Taha Sandhyaha.
Taha Sandhyaha.
Uttamam. Uttamam. Apicha Mahesh Mahodaya?
Ha, madam.
Agrimam.
एषा बालिका एते बालिके एताः बालिकाः
उत्तमं सुन्दरम् अपि च शैलजा भगिनी अग्रिमम् शैलजा भगिनी अस्ति वा न श्रूयते भगिनी
Which word?
Vriddha.
Vriddha. Saha vriddha.
Vriddha.
Vriddha. Saha vriddha.
Kintu bhagini, linga kaha?
Vriddha pulling?
Vriddha. 1.2 ah. इति भागम् इति भागे
ओ ओके सॉरी सा वृद्धा ते वृद्धे ताः वृद्धाः
उत्तमम् उत्तमं भगिनी धन्यवादः अपि च सुधा भगिनी
अस्ति
अग्रिमं करोतु
एषः एषा नलिनी एते नलिने एताः नलिनाः
उत्तमम् उत्तमं भगिनी अग्रिमं करोतु सुरेश महोदय सुरेश महोदय अस्ति वा
सॉरी आई डिडंट अनम्यूट सॉरी सा सावित्री ते सावित्रो ता सावित्रा
इकारांत दीर्घ अपि च ह्रस्व किञ्चित् भेदः अस्ति नलिनी अपि च सावित्री इति किञ्चित् भेदः अस्ति.
ओके.
नलिनी सावित्री दीर्घ ईकारान्त. दीर्घ ईकारान्त इत्युक्ते
सा सावित्री
नलिनी
नलिनी
सावित्री इति दीर्घ ह्रस्व न ह्रस्व न नलिनी न नलिनी
नलिनी
दीर्घ ईकारान्त अस्ति. तदनन्तरं नदीवत् नदी नद्यौ नद्यः. एषा नदी एते नद्यौ एताः नद्यः. इति रूपाणि.
मेडम् केन् यू वन्स् अगेन् रिपीट् फार् नदी मेडम्.
नदी नदी नद्यौ नद्यः.
नदी नद्यौ नद्यः
नद्यः. नलिनी नलिन्यौ नलिन्यः
नलिन्यः.
भगिनी भगिन्यौ भगिन्यः. भगिनी इत्युक्ते
सिस्टर्
सिस्टर् टु सिस्टर्स् भगिन्यौ
भगिन्यौ
बहुवचनरूपं भगिन्यः. अपि च सावित्री सावित्री सावित्र्यौ त्र्यौ सावित्र्यौ अपि च सावित्र्यः त्र्यः. भेदः किञ्चित् अस्ति.
अकारान्त स्त्रीलिङ्ग अण्ड् ईकारान्त स्त्रीलिङ्ग लिटिल् डिफ्रेन्स्.
उत्तमं महोदय उत्तमम्.
Is it only in the Prathama Vibhakti or all other Vibhaktis also it is different, Pana?
Bheda kam kim api asti mahodaya.
Okay.
Chinta mastu aduna. Aduna chinta mastu mahodaya.
Only to add up to the reading.
Enough. Enough. That's all.
Slowly, slowly. Otherwise too much.
Uttamam. Uttamam. अस्तु. सावित्री इति महोदय वदतु. सा सावित्री वदतु महोदय. सुरेश महोदय न अपि च सुरेश महोदय अस्ति वा?
अस्ति अस्ति. सा सावित्री ते सावित्रौ
सावित्र्यौ त्र्यौ
ते सावित्र्यौ ताः सावित्र्याः
ताः सावित्र्यः
ताः सावित्र्याः
ताः सावित्र्यः
ताः सावित्र्यः.
उत्तमम् उत्तमम् उत्तमम्. सुधा भगिनी एकवारं अधिकम् अधिकं नलिनी इति वदतु वदतु.
नलिनी एषा एषा नलिनी एते नलिनौ
नलिन्यौ
नलिन्यौ एताः नलिन्याः
नलिन्यः
नलिन्यः.
उत्तमं सुन्दरं भगिनि सुन्दरं धन्यवादः. अपि च अपर्णा भगिनी अग्रिमं करोतु. नपुंसकलिङ्गरूपाणि जानाति वा?
इस् इट् सेम् लैक् पुल्लिङ्गं?
न न भगिनि. अहम् एकं वदामि.
तत् पुस्तकं ते पुस्तके तानि पुस्तकानि तत् पुस्तकं ते पुस्तके तानि पुस्तकानि अग्रिमं करोतु भगिनि
तत् गृहं ते गृहौ तानि गृहाणि
उत्तमं भगिनि धन्यवादः अपि च भीष्म महोदय अग्रिमं करोतु
I am not settled somehow, so.
Kripya.
I am listening, but I can't get the screen or anything.
Screen sharing aduna na karomi mahodaya. Kevala audio.
Yeah, audio I have in the telephone, yeah, but I can't see the where you are talking in the book.
Astu mahodaya.
In page.
महोदय पुस्तकमस्ति वा भवान्
अभ्यास पुस्तकं पेज् केन् यू टेल् मी द पेज्
पेज् 3 महोदय त्रीणि
ओ 3 ओके
पेज् 3 पेज् 3 1.2
you are way behind then somewhere
1.2e अनन्तरम् अनन्तरम् आगच्छतु महोदय अधुना आनन्दज्योति भगिनी अस्ति वा
नमस्कारम्
स्वागतम् आनन्दज्योति भगिनी नमस्कार भगिनी नमस्कार अग्रिमं महेश महोदय अग्रिमं करोतु महोदय कृपया
एतत् छत्रम् एते छत्रे एतानि छत्राणि
सुन्दरं महोदय सुन्दरं शैलजा भगिनी अग्रिमं करोतु
एतत् पुष्पम् एते पुष्पे एतानि पुष्पाणि
सुन्दरं सुन्दरं भगिनि धन्यवादः अधुना भीष्ट महोदय वक्तुम् इच्छति वा अग्रिमं करोतु
उपनेत्रं एषा उपनेत्रं
महोदय एकनिमिष महोदय महोदय लिङ्ग कः अत्र
नपुंसकलिङ्ग
नपुंसकलिङ्गनि
एतत् 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 उपनेत्रम् एतत् उपनेत्रौ उपनेत्रे
एते उपनेत्रे
एते उपनेत्रे एतानि उपनेत्राणि
उपनेत्राणि सुन्दरं महोदय सुन्दरं महोदय पुनः एकवारं
वी हैवंट गॉन टू दिस थिंग्स येट इन द अदर वर्ल्ड सो
अस्तु महोदय कृपया पुनः एकवारं वदतु महोदय
एतत् उपनेत्रम् एतौ एते उपनेत्रौ
चिन्तयतु महोदय नपुंसकलिङ्ग एते द्विवचनरूपम् एते उपनेत्रे
एते उपनेत्रे एतानि उपनेत्राणि बहुवचन
किन्तु वयं हिन्दीभाषायां किञ्चित् स्वराः सर्वजनाः किञ्चित् स्वराः खादन्ति स्वराः किन्तु अत्र संस्कृतमध्ये
संस्कृतभाषायां वयम् इति किञ्चित् अभ्यासेन महोदय सर्वम् आगच्छन्ति उपनेत्रम् पुनः एकवारं वदतु महोदय एतत्
एतत् उपनेत्रम् एते उपनेत्रे एतानि उपनेत्राणि
सुन्दरं महोदय बहु सुन्दरं समीचीनं धन्यवादः महोदय आनन्दज्योति भगिनी अग्रिमं करोतु
एतत् विच् वन्
अग्रिमं भगिनि उपनेत्रम् इति अभवत् अग्रिमं
दूरदर्शनं एतत् दूरदर्शनं
भगिनि दूरदर्शनं
दूरदर्शनं ओके एतत् दूरदर्शनं एते दूरदर्शने एतानि दूरदर्शनानि
दूरदर्शनानि उत्तमं भगिनि धन्यवादः अपि च यदि प्रश्नवाचक अस्ति चेत् तदनन्तरं कथं वदामः तदनन्तरं
किम्
एतत् किम्
एतत् दूरदर्शनम्
द्विवचन अस्ति चेत् प्रश्नवाचक कथं वदामः एते के
ओ एते उपनेत्रे
एतानि कानि
ओ एतानि उपनेत्राणि
उत्तमं भगिनी भवती एव भीष्टमहोदयां कृपया किमपि पृच्छतु प्रश्नवाचक वदतु भगिनि आनन्दज्योति भगिनी अस्ति वा किमपि पृच्छतु भीष्टमहोदयान्
किम्
एतत् किम्
ओ एतत् किम् फार् दूरदर्शनं आर् समथिङ्ग् एल्स्
किमपि महोदय किमपि
एतत् किम् एतत् के
महोदय उत्तरं ददातु महोदय
ओ एतत् एतत् दूरदर्शनं
उत्तमं भीष्टमहोदय भवान् एव पृच्छतु महोदय
किं किं दूरदर्शनं
किं दूरदर्शनं विच् टी वि कोन्सा टी वि कोन्सा दूरदर्शन किं दूरदर्शनं
किं दूरदर्शनं दूरदर्शनं
तत् किम् इत्युक्ते वह क्या
या तत् किं तत् सा तत् किं
न महोदय सः इत्युक्ते पुंलिङ्ग् अस्ति चेत् सा इत्युक्ते स्त्रीलिङ्ग् अस्ति चेत् किन्तु अत्र नपुंसकलिङ्ग एव
तत् इस् नपुंसकलिङ्ग
उत्तमं
किं किं तत् किं
तत् किं
तत् दूरदर्शनं
उत्तमम् उत्तमं महोदय अधुना भवान् एव किमपि अपर्णा भगिनीं पृच्छतु
ओ अपर्णा भगिनी the next ones are what 1.2 u
no next or number e? Mahodaya kimapi puta sankhya 2 api cha 3 kimapi prichhatu mahodaya puta sankhya 2 api cha 3 madhye kimapi prichhatu पुटसङ्ख्या द्वे अपि च त्रीणि
अपि च त्रीणि
मध्ये मध्ये किमपि पृच्छतु
एतत् किं एतत् किं दत्तं
एतत् किं भगिनी उत्तरं ददातु
एतत् छत्रं
महोदय द्विवचनरूपं पृच्छतु
एतौ छत्रं का
महोदय एतौ चिन्तयतु एतौ
छत्रं
महोदय
छत्रे
छत्रे उत्तमं किन्तु एतौ समीचीनं नास्ति महोदय ये दो क्या है क्या ये दो क्या ये दो नपुंसकलिंग क्या है चिंता चिंता मास्तु महोदय चिंता मास्तु महोदय तदेव तदेव वयम् अभ्यासः कुर्मः महोदय चिन्ता मास्तु अपर्णा भगिनी बहुवचनरूपं रूपे किमपि प्रश्न पृच्छतु सुरेश महोदय
द्विवचनं
बहुवचन भगिनी
तानि कानि
उत्तमं सुरेश महोदय उत्तरं ददातु
तानि दूरदर्शनानि
दूरदर्शनानि
तानि दूरदर्शनानि
उत्तमं सुरेश महोदय
तानि फलानि
फलानि अपि च तानि कृष्ण फलकानि उत्तमं महोदय सुरेश महोदय किमपि किमपि लिङ्गः किमपि पृच्छतु सुधा भगिनी पृच्छतु महोदय
एते उपनेत्रे
एते के एते उपनेत्रे अपि च एते सीते अस्ति वा स्त्रीलिङ्ग् अस्ति चेत् एषा एते एताः एते के एते वृद्धे एते बाले के एते पुष्पे द्विवचनरूपं द्विवचनरूपं स्त्रीलिङ्ग् अपि च नपुंसकलिङ्ग् समानेव वा? समानेव. द्विवचनरूपं स्त्रीलिङ्ग् अपि च नपुंसकलिङ्ग् अस्ति चेत् समानेव.
समानेव अस्ति.
द्विवचनरूपं समानेव. एते सीते अपि च एते पुस्तके यदि द्विवचनरूपम् अस्ति चेत् एव. यदि दो है तद् तब केवल स्त्रीलिंग रूप में और नपुंसकलिंग रूप में दोनों में एक ही लगता है, ते लगता है. सबको हिंदी समझ आती है ना इस ग्रुप में? एनीबडी नॉट अंडरस्टैंड हिंदी? एनीबडी नॉट अंडरस्टैंड हिंदी? हिंदी में समझाने में थोड़ा सा सुलभ लगता है, आसान पड़ता है, क्योंकि हिंदी का जो मन में जैसा चाल चलती है उससे कुछ कुछ संस्कृत से हम लोग को सहायता सीखने में मिलती है. इसलिए हिंदी में समझा रही हूँ कि जब स्त्रीलिंग का रूप होता है तो दोनों द्विवचन रूप में एक ही हैं. तो अगर किसी ने प्रश्न पूछा एते के, देन यू हैव टू सी द कॉन्टेक्स्ट कि व्हाट इज दैट पर्सन थिंकिंग अबाउट. मे बी यू नो. इफ यू डोंट नो यू कैन टेक बोथ द आंसर्स एंड बोथ विल बी करेक्ट. नातं वा? अवगच्छन्ति वा सर्वे जनाः? उत्तमम्. अपि च
क्वेश्चन मैडम,
वदतु महोदय.
दिस के इज फॉर नपुंसकलिंग, राइट? इन द सेंस किम के कानि इज फॉर नपुंसकलिंगम.
अपि च स्त्रीलिंग, स्त्रीलिंग महोदय,
फॉर स्त्रीलिंग इट इज किम
का के काहा.
का के काहा. ओ के इज सेम फॉर बोथ ऑफ यू.
अस्तु महोदय. सो कॉन्टेक्स्ट विल टेल यू.
या या ओके नो प्रॉब्लम.
अधुना सुधा भगिनी पृच्छति.
हाँ अभी तो
पूछ लिया आपने?
हम नहीं पूछ लिया.
सुधा भगिनी, शैलजा भगिनी पृच्छतु किमपि.
एतत् इट शुड बी इन एकवचनं.
किमपि भगिनी.
ओके. एतत् किम्?
शैलजा
भगिनी, सो आई कैन आंसर एनीथिंग, एनी वर्ड फ्रॉम दिस
इफ द क्वेश्चन अप्लाइज. मा भगिनी, एतत्
एतत् पुष्पम्.
उत्तमं भगिनी. एतत् पुष्पम्. अपि च सुधा भगिनी बहुवचन रूपं पृच्छतु.
बहुवचन
एताः एताः काः?
उत्तमम्. शैलजा भगिनी,
ओके. एताः नलिन्याः
नलिन्यः बहुवचन नलिन्यः उत्तमम् उत्तमम् शैलजा भगिनी किमपि पृच्छतु महेश महोदयं
हा
एकवचन द्विवचन अपि च त्रि बहुवचन
त्रि क्वश्चन्स्
उत्तमम्
का वृद्धे के वृद्धे
का वृद्धे
के वृद्धे
किन्तु सः तौ ते ते के ते वृद्धे
Can't I ask like this?
Which one?
Ke vrutte.
Ke vrutte. Vrutte chukte bhagini aham na. Vrutte iti samyak nasti ma bhagini. Ke pumling.
Ke vruddaha.
Vruddaha. स्त्रीलिङ्ग् अस्ति चेत् भगिनी स्त्रीलिङ्ग् वदतु भगिनी सत्यं वदतु के वृद्धे सः स्त्रीलिङ्ग् अस्ति चेत् के वृद्धे इत्युक्ते भगिनी
ट्रान्स्लेट् ऐ केन् आस्क् दट् क्वश्चन् के वृद्धे
डु यु अण्डर्स्टाण्ड् वट् द क्वश्चन् मीन्स्
हौ मेनि लेडीस् आर्
No,
I mean,
no.
Old.
How many you are already saying? No, K.
No, two.
So then what is the question? K vriddhe chukte? What does it mean? Artha?
Two old women, na?
Lekin tu prashna kaha iti? Iti aham prichami magini. What is your question? Yadi vayam K vriddhe iti
K ete, I have to ask K ete. Is it right?
Ete K.
Ete K.
Ichukte, what does that mean?
Who is this? Who are they?
They meaning? How many?
How many are there? How many are they?
Ete K, ichukte, yahan pe ye do... स्त्रीलिङ्ग् रूपं रूपे कौन् है विच् टु फेमिनिन् थिङ्ग्स्
एते के
देट्स् द क्वश्चन् देट्स् वट् इट् मीन्स् इट्स् कन्फ्यूसिङ्ग् सो मेनि थिङ्ग्स् आर् गोयिङ्ग् आन् एषा का मीनिङ्ग् यः स्त्रीलिङ्ग् यः महिला कौन् है
सिङ्ग्युलर् फार्म् मे
एषा का एते के एताः काः स्त्रीलिङ्ग् मे कर् रहे आप् इसलिये
ऐल् आस्क् वन् मोर् क्वश्चन्
सोरि
पृच्छतु भगिनि
हलो
हलो एतानि कानि
उत्तमम् महेश महोदय अस्ति वा
एतानि फलानि
फलानि
फलानि एतानि
फलानि फलानि महेश महोदय किमपि द्वि अपि च बहुवचनरूपं पृच्छतु आनन्दज्योति भगिनी
द्विवचन
अपि च बहुवचन किमपि पृच्छतु
Ete ke.
Ete Krishna Palakam Mani.
Oh, Ete Krishna Palake.
Krishna Palake. Oh, yeah. Ete Krishna Palake.
Uttamam. Mahesh Mahodaya. Punaha Eka Kimapi Prashna Prachatu. Ananda Jyoti Bhagini.
Etani Kani.
Etani Grahama Graham Ani Grahamani.
Bhagini Bahu Vachana Rupam Makara Nasti. Ante Makara Grahani.
Grahani. Oh.
Phalani.
Im okay, we should not take okay.
Krishna Phalakani Dura Darshanani Upanetrani. Pushpani, Chatrani, Pustakani, Iti, Samyak Bhagini. Punaha Uttaram Dadatu Bhagini.
Etani Grahani.
Uttamam, Sundaram, Sundaram. Adhuna, Paryantam Kopi Prashna Asti.
Madam, quick question, Bhagini. Earlier there was another question asked, which was like, ke vridhe, does it mean that which old ladies are these? Is that what it is?
It's possible, Mahamadaya. It depends. See, when you ask a question word, so many possibilities are there.
Yeah, correct. But can it be interpreted as which two old women are these?
It's possible, Mahamadaya. Possible.
Kevriddhi. Okay.
Kevriddhi.
Bhagini? I have another question. For the same thing, Kevriddhi. Is the question, if I ask Ke Vriddhe Va, is it the same? It's the same, right?
Ke Vriddhe Va, Ichukte, see, Va, yes, Va is an interesting, we'll go into that next, Bhagini.
Okay. Oh. But can we ask like that? Ke Vriddhe Va?
We'll go into it next, Va.
Okay. Okay,
thank you. How Va works. This class we have not studied Va, I think. Have we studied?
We just started but didn't go deep into it.
Didn't go deep.
Yeah.
So we'll do it today.
Okay.
Astu. Agrimam. Astu. Adhuna Chatvari. Pute. Purataha. Udghatayantu Puta Sankhya Chatvari Udghatayantu Krapaya Apicha Sailaja Bhagini Pathatu Bhagini Udaharanam Iti Sailaja Bhagini Astiva.
Sorry. I just unmuted. Sorry.
Yeah.
Udaharanam drushtva vakyani likatu.
Ichukte.
Udaharanam means example.
Drushtva.
Drushtva.
Ichukte.
Seeing or something like that.
Uttamam. Dekhkar.
Dekhkar. Yeah.
Having seen.
Having seen. Yeah. Vakyani. Form a sentence.
No,
form
a sentence. Vakyani vachana kaha.
Vakyani likatu.
Vakyani.
Vakyani is dvivachanam. Bahuvachanam.
Wow.
Bahuvachanam. Vakyani.
Likatu. Likatu ichukte.
Likatu. Is it? एकवचनं लिखतु लिखतु
किन्तु इत्युक्ते लिखतु इत्युक्ते
राइट
प्लीज राइट कृपया
राइट या
प्रार्थना वाचक
उदाहरणानि
लिखतु इति लिखतु वदतु
काइंडली राइट काइंडली राइट समथिंग लाइक दैट
मे इट बी दैट यू राइट मे यू राइट
मे यू राइट ओके
उत्तमम् उत्तमम् अग्रिमं पठतु भगिनी प्रथम वाक्य
सा बालिका वा आर् यू ए गर्ल
उत्तरम्
हा
आम्
आम् आम् सा बालिका
अधुना सा बालिका वा इस् नाट् आर् यू अ गर्ल् इस् नो यू देर् देर् इस् नो यू देर् सा बालिका इत्युक्ते वः लड्की वा इत्युक्ते
आर् यू
यू नो यूनस् नास्ति भगिनि सा बालिका वा वः लड्की है कि नहीं इट्स् लैक् देट् है कि नहीं है न वः लड्की है न वही लड्की है न इट्स् लैक् देट् वः लड्की है न लैक् यू आर् टाकिङ्ग् अबौट् द गर्ल् और् समथिङ्ग् वः लड्की है न
इस् देर् अ गर्ल् राइट्
नो नाट् इस् देर् अ गर्ल् बट् वः लड्की यू आर् सिम्प्लि क्वेश्चनिङ्ग् वः लड्की द एक्सिस्टेन्स् आफ् वः लड्की देट्स् आल्
यू आर् ए गर्ल् राइट्
नाट् यू you is not
no you is not
sa ichukte
so you cannot translate that into english then isn't it I cannot no, visualize
can say, you can so sa means like
she is a girl isn't it
she is a girl. We were doing in the previous page saha balakah means he is a boy tau balakau those two are boys ते बालकाः दे आल् आर् बाय्स् देट्स् वाट् इट् ट्रान्स्लेट्स् टु सो दीस् प्रोनौन्स् आर् नाट् अबौट् यू दे आर् अबौट् वट् वी काल् प्रथम पुरुष इस् अनदर् ब्यूटिफुल् थिङ्ग् ऐ विल् से इन् हिन्दी मे या इङ्ग्लिश् मे संस्कृत और् इङ्ग्लिश् वी हेव् आल् स्टडीड् ऐ सपोज् अङ्ग्रेजी ग्रामर् सबने पढा करेक्ट् एनिबडी नाट् स्टडीड् इङ्ग्लिश् ग्रामर् ऐ मीन् जस्ट् स्माल् वेरि बेसिक् तो इंग्लिश में हम लोग को सिखाते हैं फर्स्ट पर्सन कौन हुआ माई सेल्फ
आई
सेकेंड पर्सन कौन हुआ
यू
थर्ड पर्सन कौन हुआ
दे
दे किंतु संस्कृत में माता जी ने मेरे को सबसे पहली कक्षा में सिखाया था वेरी फर्स्ट टाइम आई वेंट टू सी हर शी सेड दुनिया में तुम्हारे और मेरे सिवाय सब कोई प्रथम पुरुष है ऐसी चिंता रख के सारा काम करो मान के चलो कि तुम्हारे और मेरे सिवाय दुनिया में सब दूसरे प्रथम पुरुष है प्रथम पुरुष मीन्स दे कम फर्स्ट दिस थर्ड पीपल द इंग्लिश सो कॉल्ड थर्ड पर्सन इन संस्कृत कम्स फर्स्ट in your mind iska matlab kya humko chhod ke tumko aur mujhko chhod ke duniya mein anya sab prathama purush hain sanskrit mein ye sanskrit bhasha humko sikhati hai aur iske upar aap chintan karenge to aapko samajh aayega isme kitni gehri baat unhone kitne mamooli roop se bata di nahi to kya tu मैं और तुम और मैं हम लोग दोनों अपना फायदा उठाते रहे फायदा बढ़ाते रहे और दुनिया का कोई ध्यान ना दे अगर हम लोग दोनों प्रथम आते मैं और तुम मैं और आप तो मैंने आपका फायदा देख लिया आपने मेरा फायदा देख लिया इसको कैसे या इसको कैसे फायदा मिलेगा मैंने आपका भी देख लिया मेरा भी देख लिया तो अन्य दुनिया को क्या होगा जो आज हो रहा है ना वही होता है, जो आज दुनिया में हो रहा है इसी कारण हो रहा है क्योंकि फर्स्ट पर्सन मैं, सेकंड पर्सन तुम। वर्ल्ड बैंक ने उसके दूसरे के साथ हाथ मिला लिया, बात खत्म, दुनिया अपने लूटे। तो इतनी बड़ी बात इतनी मामूली रूप से व्याकरण के रूप में बिना सोचे अगर हम लोग ऐसे ही भाषा में आने लगे तो हमारी पूरी जो जो चिंतन का जो दृष्टिकोण है पूरा अपने आप ही बदल, स्वयं में बदल जाता है बिना उसको कुछ बोले, बिना अपने मन को कुछ समझाए कि नहीं यार ये तो गलत है, दूसरों का सोचूंगा तो मैं तो मर जाऊंगा, ये बिना सोचे आ जाता है। कितनी सुंदर और कितनी बड़ी बात है। इसीलिए इसीलिए संस्कृत भाषा में एक एक चीज आप देखेंगे मनुष्य के जीवन की एक एक चीज के बारे में चिंतन करके उन्होंने, महान ऋषियों ने हम लोग को संस्कृत के भाषा, संस्कृत भाषा द्वारा संस्कृति दी है। सो अभी हमने बोला एषः बालकः, संस्कृत भाषायां इति प्रथम पुरुष वाक्य अस्ति। He is a boy. This is first person in Sanskrit. Prathama purusha, madhyama purusha, apicha uttama purusha. Uttama purusha kaun hua?
Main.
Main. Uttama purusha main hua. Kaise main hua phir? Agar hum sabse uttam ho gaye, to phir kya bacha? सब पानी ये कराई पे सारा पानी फेर दिया ना हम लोग ने। तो इसका देखिए अर्थ कितना सुंदर है, हम लोग स्वयं उत्तम पुरुष हैं। इसका अर्थ कहाँ से निकलता है कि
एक सेकेंड, मेरे बिजली खत्म होने वाली है।
इसका अर्थ कैसे निकलता है कि जो हम आशा रख सकते हैं स्वभाव में, क्रिया में, करने में, सबसे उत्तम आशा हम लोग स्वयं से ही रखें। ये नहीं कि मैंने तुमको सबसे ऊंचा समझा और तुमने तो मुझे पानी में गिरा दिया। मतलब सच अ बिग थिंग। सोचिए आप किस किस प्रकार से इन लोगों ने ऐसे सोच के ये भाषा में डाल के रखा है। उत्तम, सबसे उत्तम जो है व्यवहार, क्रिया, करना, काम, वो हम स्वयं से ही अपेक्षा रखें, दूसरे से नहीं, क्योंकि करने वाले हम ही हैं। अगर हम दूसरे की अपेक्षा में सब कुछ करें कि वो करेगा तब ऐसा होगा, उसने तो ऐसा नहीं किया मैं नहीं करूंगा, नहीं, किसी दूसरे पे हम लोग का कोई हक नहीं बैठता। We have no right over anybody else's behavior. At the same time, the uttama behavior must come from us only. I. Ye hai uttama. Uttama is an expectation of behavior. Prathama is an expectation of giving precedence to. Kitni sundar भाषा है, सोचिए आप कहां से कहां ले जाती है हम लोग के चिंतन को। और ऐसा हम लोग दुनिया में सोचते हैं तो ये जो दुनिया लूटने वाली है वो नहीं होती। और संस्कृति में जब हम लोग डूबे थे तब ऐसी ही थी, और ऐसे ही वापस लेके जाना है हम लोगों को धीरे धीरे, ऐसे साहत उते करके।
ट्रू ट्रू मैम।
हाँ ओके,
ब्यूटीफुल एक्सप्लेनेशन मैडम।
हाँ हाँ धन्यवाद महोदय। ब्यूटीफुल तो संस्कृत है, हम लोग तो बिल्कुल बच्चे बच्चे हैं।
मगर आप बताते हैं तो ही मालूम पड़ता है कि संस्कृत कितना अच्छा है।
वाकई वाकई। सो व्हेन यू से सा बालिका, इट इज अ प्रथम पुरुष। ये अंग्रेजी वाला थर्ड पर्सन आप अब भूल जाइए आज से। भूल जाइए इस चीज को, आप केवल हर मेरे और आपके सिवाय जो भी दुनिया में है उसको आप प्रथम पुरुष रूप मान के ग्रामर रूप में मानिए। आपके मन में भले वो चिंतन ना आए, आप व्याकरण रूप से ही उसको प्रथम पुरुष मानिए। तो उसमें मैं और यू एंड आई विल नॉट कम इन दैट सेंटेंस। अवगच्छति वा भगिनी? सो यू कैन नॉट ट्रांसलेट एंड से यू आर अ गर्ल, नो। सा बालिका वा इत्युक्ते वह लड़की है कि नहीं, है कि नहीं, वह लड़की है ना। आम, सा बालिका इत्युक्ते हाँ, वह लड़की है। अस्ति इज अ वर्ब, क्या क्रियापदम, क्रियापदम इत्युक्ते करने वाला शब्द,
एक्शन,
एक्शन वर्ड, क्रियापदम। क्रियापदम जब नहीं दिखता वाक्य में, लाइक ये वाक्य में सा बालिका, इसमें क्रियापदम नहीं है, लेकिन जब ऐसा वाक्य होता है देन इट इज अस्यूम्ड कि इसमें अस्ति है, अस्ति मतलब है। एषः बालकः अस्ति, एतौ बालकौ स्तः, एते बालकाः सन्ति, है और हिंदी में है, बहुवचन में है हो जाता है, संस्कृत में बहुवचन में सन्ति, एकवचन में अस्ति। पुस्तकम अस्ति, पुस्तकानि सन्ति। गृहम अस्ति, गृहे स्तः, गृहाणि सन्ति। ओके, बैक टू एक्सरसाइज। ओके, सो सा बालिका वा? आम, सा बालिका। अपि च शैलजा भगिनी अग्रिमं वाक्यं पठतु भगिनी।
सः बालकः वा?
बालकः,
सः बालक, सः बालक वा?
बालकः वा? पुनः वदतु भगिनि।
सः बालक, बालकः वा?
इत्युक्ते
आम्, सः बालकः।
उत्तमम्। इत्युक्ते भगिनि अर्थ क्या है इसका?
आम इज एस, राइट, राइट मैडम?
आम इज यस। सः बालकः वा इत्युक्ते
सः
No, सह बालक वा मीनिंग, what does it mean?
You boy, right?
हाँ, you are a boy, right? वह लड़का ना है ना? You नहीं, you cannot say you, वह.
Sorry, yeah.
वह लड़का ना है ना?
वह लड़का ना है ना?
वह लड़का. आम.
सा बालकः,
सः,
आम, सा, आम, सः बालकः।
इत्युक्ते
यस,
वह लड़का है,
देयर इज अ बॉय, या
वह लड़का है,
या यू कैन ट्रांसलेट दैट इनटू लाइक यस देयर इज बॉय,
बट इन इंग्लिश इट डजंट, द ट्रांसलेशन डजंट कम एग्जैक्ट, क्योंकि इंग्लिश, इन इंग्लिश देयर इजंट दिस कॉन्सेप्ट ऑफ डिस्टेंस ना एज मच, लाइक देयर इज अ बॉय, यू कैन से दैट इज अ बॉय, देन इट इज लिटिल मोर एक्यूरेट,
दैट इज
बिकॉज इट इज वाई दैट, बिकॉज सह, अदरवाइज इट वुड बी एषः, दिस, एषः बालकः वा, इज दिस अ बॉय, आम, एषः बालकः, हाँ, यही, दिस, यह, This is a boy. So that is a little more accurate.
Okay.
Then in English, the concept of a and the comes. If you are specifying which boy it is, then you cannot say a boy. Then you have to say the boy. So it's slightly different concepts are there. That's why Hindi is best. And your mother tongue, Bhagini, is?
Telugu.
Telugu. Then you have to think in Telugu.
Yeah.
I'm sorry, I don't know Telugu. Otherwise, I would have tried to help you in that. But Telugu is best. Telugu is best, Bhagini. You think of it when you translate, instead of in your notes, translating in English, you use Telugu, please. Always use Telugu. Everybody use your mother tongue. Jo bhi aapka hai. Shailaja Bhagini has Telugu. And Sudha Bhagini, Matrabhasha ka? Kya tha?
Matrabhasha Telugu aur Tamil bhi samajhte hain. Tamil bhi baat karte hain. Yeah.
Uttamam. And Hindi also, beautiful.
And Hindi, yeah.
Uttamam, uttamam. Suresh Mahodaya, Matrabhasha ka?
Telugu.
Telugu, uttamam. Uttamam.
This is a Telugu class.
उत्तमम् अपर्णा भगिनी
हाँ मेरा भी तेलुगु
तेलुगु आया उत्तमम् उत्तमम् अपि च भीष्ट महोदय
हिंदी देवनागरी
देवनागरी उत्तमम् उत्तमम् अपि च आनंद ज्योति भगिनी
मदर टंग इज तमिल बट आई बोर्न ब्रॉट अप इन बैंगलोर बैंगलोर या कनाडा
कनाडा तमिल beautiful Tamil. Mahosh Mahesh Mahadev?
My mother tongue is Kannada, madam.
But your Hindi is also beautiful, everybody.
I studied in many parts of North India, so little bit of Hindi I was able to grasp.
Sundaram, Sundaram. Dhanyavadam.
Though not very good, huh?
Kripaya Kshamyatam Sarve Janaha Sarve. And I ask for forgiveness. I wish I could speak Telugu. Maybe you can teach me. Telugu and Kannada I have tried to learn, and when I go to Bangalore I start speaking, then again I lose it. Astu. Agrimam Sudha Bhagini Agrimam Patatu Bhagini.
Etat Dwaramva. आम एतत् द्वारम्
इत्युक्ते
इस दैट डोर यस दैट इज अ डोर
उत्तमम् सुन्दरं भगिनी सुरेश महोदय अग्रिम
एषः सैनिकः वा आम एषः सैनिकः
किन्तु सैनिकः नास्ति महोदय कुत्र अस्ति सैनिकः नास्ति अत्र
ओ न न एषः वैद्यः
उत्तमं महोदय एषः सैनिकः वा इत्युक्ते
Is he a soldier? Yah sainik hai kya?
Sundaram, sundaram, sundaram.
Nahi, yah sainik nahi hai.
Saha.
Yah vaidya hai.
Sundaram, samichinam, bahu samichinam. Agrimam Bhishma, no, Bhishma na. Aparna Bhagini.
एषा युवती वा न एषा युवती न एषा वृद्धा
न एषा युवती न अपि च न एषा युवती नास्ति
नास्ति
द्वयोः समीचीनं भगिनि
ओके
दोनों में अच्छा देन भीष्म महोदय आगे हो
या या एषा चित्रम वा
चित्रम महोदय लिंग का
Linga is neutral. Neutral. Napunshakling.
Tadanantaram?
Napunshakling. So I could remember.
Katham jani maha napunshakling iti asti. Katham jani maha?
Chittam ma.
Makaranta. Tadanantaram katham vadamaha?
I have to go back to check. Esha is what?
Welcome to life. We all have to go back.
Okay. Etat. Okay. Yeah, etat.
प्रथमतया प्रश्नः प्रश्नं पृच्छतु.
ओ एतत् चित्रं वा न एतत् चित्रं न एतत् लोकयानः
एतत्
एतत् लोकयानं और तत् लोकयानं.
Have I told all of you about the SanskritDictionary.com? SpokenSanskrit.org?
Yeah, you did.
Yes.
So, lokayanam. Now you can look it up yourself. So what is it? Lokayanam.
Lokayanam.
Make sure you get all the sounds correct when you say it. Lokayanam. Is it half a ka?
Yanam.
Lokayana. Lokayana. So then?
Lokayana.
Tat lokayanam asti.
Asti.
उत्तमम् अपि च अग्रिमम् आनन्दज्योति पठतु भगिनि अग्रिमम्
The chatam, this series 1.2 is complete, right? E is complete.
Agreement, Bhagini. Agreement. Etasya.
Etasya. Not sure which one.
Etasya, Bhagini. Koshtake Anantaram. Right below the box, Bhagini.
Oh.
एतस्य रक्तवर्णानि रेड् लेटर्स् पठतु भगिनि.
एतस्य कोष्ठकस्य
कोष्ठकस्य
सहायेन वाक्यवाणी लिखतु.
समीकरोतु भगिनि.
वाक्यानि लिखतु. सो वी हाव् टु रैट् एतस्य. ओके.
इत्युक्ते एतस्य कोष्टकस्य इत्युक्ते
कोटकस्य
भगिनि कोष्ठकस्य
कोष्ठकस्य
इत्युक्ते कोष्ठकम् इत्युक्ते लुकप् डिक्शनरी स्पोकन् डिक्शनरी डाट् काम् लुकप् 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 कोष्ठकम् इत्युक्ते If I keep telling you all the words, then you will not be in the habit of searching. So I want you to become independent of me, eventually.
Kosta is a window, okay.
कोष्ठकम् इत्युक्ते कोऽपि कोऽपि जानाति वा
बाक्स्
बाक्स् बाक्स् हौ विल् यु लुक् एट् इट् हौ डिड् यु फैण्ड् इट् भगिनि
यु मेन्शन्ड् इट् अर्लियर्
तत्तु उत्तमं भगिनि धन्यवादः सो कोष्ठकस्य इत्युक्ते डब् बाक्स् या डब्बा डब्बे का केकी यु नो देट् डब्बे का डब्बे के यु नो वट् देट् मीन्स् हिन्दी मे कोष्ठकस्य इत्युक्ते सम्बन्धः
इस् इट् विभक्ति फार्म्
हा इट्स् अ षष्टिविभक्ति षष्टिविभक्ति सिक्स्थ् विभक्ति विच् मीन्स् वाट् सम्बन्धः कोष्ठकस्य साहाय्येन इत्युक्ते बै मीन्स् आफ् द्वारा वाक्यानि लिखतु ये कोष्ठके सहायता से वाक्य लिखें डब्बे की सहायता से द्वारा सहायता द्वारा वाक्य लिखें एतस्य कोष्ठकस्य यह डब्बे की सहायता द्वारा वाक्यानि लिखतु
लिखतु okay.
Using see in English if you translate it the case endings change लेकिन हिंदी में हम लोग कर सकते हैं in English if you literally translate it means belonging to this box via help write sentences which doesn't really add up this table koshtaka is like a box or table or chart or something like that
भगिनि
वदतु
प्रश्न इति कोष्टक नपुंसकलिङ्ग
वाट् इस् युर् कम्प्यूटर्
क्वशन् इस् वै वै एतस्य एण्ड् केन् वि यूस् एतत्
बिकास् दिस् इस् नाट् प्रथमा विभक्ति महोदय दिस् इस् नाट् द कर्ता इस् नाट् द डूयर् इस् नाट् द सब्जेक्ट् कोष्टके चार्ट् चार्ट् की मदद से चार्ट् चार्ट् की सहायता से सहायता द्वारा वाक्य लिखें
हाँ हाँ मगर हम लोग बोल रहे हैं कि इस चार्ट की मदद से
हाँ तो इस चार्ट तो जैसे हम लोग बोलते हैं कि मान लीजिए एक कमरा है तो हम क्या बोलेंगे काला कमरा नीला कमरा है ना क्यों नीला वाई नीला बिकॉज कमरा इज पुल्लिंग बिकॉज कमरा इज पुल्लिंग दैट इज वाई द एडजेक्टिव दैट मॉडिफाइज दैट नाउन ऑल्सो हैज टू टेक दैट सेम एंडिंग सो नीला नीली लड़की वाई वी से नीली लड़की
Okay.
जैसा जैसा नाउन होता है वैसे ही इसका एडजेक्टिव आपको मैच करना होता है
जी जी
हाँ तो कोष्ठकस्य इज द मेन वर्ड
क्या
तो एतस्य षष्ठी वहां पे भी लग गई षष्ठी
okay.
विभक्ति प्रोनाउन में भी लग गई
अच्छा जी
प्रोनाउन यहाँ पे प्रोनाउन क्या है एतत् एतत में षष्ठी लगाएंगे तो एतस्य हो जाएगा कोष्टकम में षष्ठी लगाएंगे तो कोष्टकस्य हो जाएगा
कोष्टकस्य
हाँ सो एतस्य कोष्टकस्य संबंध क्या है दोनों में एडजेक्टिव नाउन विशेषणम विशेष्य एतस्य इज द एक्चुअल एडजेक्टिव ना नॉट एनी बॉक्स दिस बॉक्स
दिस बॉक्स
not any room, the blue room. Not any girl, the tall girl.
The tall girl.
So the tall and blue and black are the adjectives.
Yeah.
So here, this box. This, therefore, is the adjective. Not any box, this box.
Yes.
एतस्य कोष्टकस्य सहायेन इत्युक्ते द्वारा सहायता द्वारा सहायता से बै मीन्स् आफ् हेल्प् फ्रम् वाक्यानि लिखतु अग्रिमं पठतु भगिनि कण्टिन्यू
निर्मला बालिका वः
वाहन समीकरोतु भगिनि
निर्मला निर्मला बालिका वा आम् निर्मला बालिका सा युवा युवतिः न
युवतिः
युवतिः युवतिः न
कोष्टकं पश्यतु निर्मला प्रथम नाम दत्तं निर्मला अपि च बालिका चेक् मार्क् युवतिः क्रास् मार्क् सा युवतिः न सी द क्रास् मार्क् आफ्टर् युवतिः इन् द बाक्स् सो दीस् त्री वर्ड्स् इन् द बाक्स् इन् द हारिज़ोण्टल् रो यु आर् मेकिङ्ग् इन् टु त्री सेपरेट् सेण्टेन्सेस् निर्मला बालिका वा द फस्ट् कालम् इस् अ क्वश्चन् सेकेण्ड् कालम् आन्सर् द क्वश्चन् आम् निर्मला बालिका थर्ड् क्वश्चन् ओ वट् शी इस् और् वट् शी इस् नाट् दीस् टु टुगेदर् कालम् टु एण्ड् थ्री टुगेदर् आन्सर् द क्वश्चन् पोस्ड् बै द फस्ट् कालम् करेक्ट् समीचीनं वा भगिनि
अण्डर्स्टुड्
अग्रिमं करोतु भगिनि
रोहिणी वैद्या वा रोहिणी वैद्या वा न रोहिणी वैद्या न सा विद्यार्थिनी
उत्तमम् उत्तमम् ज्ञातं वा यु अण्डर्स्टुड्
ऐ डिड् नाट् अण्डर्स्टाण्ड् वै देर् इस् अ क्रास् मार्क् फार् युवती
बिकास् दे आर् ट्रैङ्ग् टु टेल् यु वट् हौ टु से वट् शी इस् अण्ड् वट् शी इस् नाट् मेबि शी इस् अ युवती मेबि शी इस् नाट् दे आर् सिम्प्लि मेकिङ्ग् सेण्टेन्सेस् इस् नाट् अबौट् सत्यम्
ओके
It's not like you are not going to say, no, no, Nirmala is a yuvati, how can they write this? No, it's not like, it's just a grammar class.
Okay.
Rohini Vaidya va, is she a doctor? Na, Rohini Vaidya na, she's not a doctor. Sa Vidyarthini, she's a student.
Student.
करोतु भगिनि करोतु
महेशः वैद्यः न महेशः विद्यार्थी
भगिनि
महेशः वैद्यः
विद्यार्थी वा
विद्यार्थी वा वा ओके महेशः वैद्यवाः
न भगिनि प्रथम अपि च द्वितीयस्तम्भ प्रश्नवाचक उपयोगं करोतु भगिनि महेशः विद्यार्थी वा
महेशः विद्यार्थी वा
देन् आन्सर् इट् महेश आम्
आम्
सः
महेशः विद्यार्थी
सः आम् सः विद्यार्थी
विद्यार्थी
क्या महेश विद्यार्थी है देन यू सी द चेक मार्क देन यू आर लाइक ओ आम् सः हाँ वह विद्यार्थी है सः वैद्यः न उत्तमम् शैलजा भगिनी अग्रिमं करोतु
हा
अनन्तः वैद्या वा
वैद्या नाम अस्तु भगिनि अनन्तः
अनन्तः शिक्षक वा
शिक्षकः
शिक्षकः वा आम् अनन्तः शिक्षकः
अपि च आम् सः शिक्षकः
आम् सः शिक्षकः
पूरयतु कम्प्लीटेड्
लिपिकारः सः सः लिपिकारः न
सः लिपिकारः न
can't we say na
because na you are questioning that tone yeah. to me sounds like but he's they are telling you by confirmation they have put a cross mark that means he is not a lipikara so he's not a question
sah lipikarah na
na or nasti
nasti
uttamam uttamam agrimam sudha bhagini karatu
देवदत्तः न्यायवादी वा न देवदत्तः न्यायवादी न सः उत्तङ्कः
उत्तङ्ककः
उत्तङ्ककः
इत्युक्ते
न्यायवादी ऐ गाट् इट् उत्तङ्कः मुझे मालूम नहीं है
उत्तङ्ककः
उत्तङ्ककः
मैंने आपको कौन सा वेबसाइट बोला देखने को चेक
ओपन डिक्शनरी
कॉपी जानाति वा उत्तङ्ककः ऑनोमेटोपेइक वर्ड उत्तङ्ककः इच्छुक्ते टैपिस्ट् श्रूयते वा भगिनि ओल्ड् टैम् टैप् रैटर्स् हौ डिड् दे साउण्ड् टक् टक् टिक् टिक् टक् टक् टिक् 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 लैक् दिस् दे यूस्ड् टु साउण्ड् नो
उत्तङ्ककः
डिड् यू फैंड इट् इन् द डिक्शनरी आन्लैन्
I'm trying to but I couldn't get
so,
it
so
uttan
ha uttan you uttank you just start with uttank and then slowly options will start coming already uttank if you even it press uttank it comes up
it says typist here
typist only
उत्तमम्
अग्रिमं धन्यवादः भगिनि अग्रिमं सुरेशमहोदय
नागराजः चित्रकारः वा न सः आरक्षकः
किन्तु न सः चित्रकारः न
सः चित्रकारः न सः चित्रकारः न सः आरक्षकः
अस्ति उत्तमम् उत्तमम् उत्तमं सर्वे ज्ञातं वा एव्रिबडि अण्डर्स्टुड्
यस्
अधुना समयातीत क्षम्यताम् अधिकजातः विरमामः सर्वेभ्यः नमस्कारः बहु धन्यवादः पुनः मिलामः अग्रिमं सप्ताहे न्यू इयर्स् इङ्ग्लिश् केलेण्डर् न्यू इयर् अस्ति यु पीपल् वुड् लैक् टु क्लास् और् यु वुड् पीपल् वुड् मे बी बी वित् फेमिलि
प्लीस् टेल् मी विल् बी आन् ट्रावेल्
मेनि पीपल् आर् ट्रावेलिङ्ग्